तृतीय उल्लासः अर्थाः प्रोक्ताः पुरा तेषाम् अर्था वाच्य लक्ष्य व्यंग्याः तेषाम् वाचक लाक्षणिक व्यंजकानाम्। 36 अर्थ व्यंजक तोच्यते कीदृशित्याः। 37 वक्तृबोधव्य काकुनाम् वाक्य वाच्यान्य सन्निधेः प्रस्ताव देश कालादेव सृष्ट्यात् प्रतिभाजुषाम् यो अर्थस्यान्यार्थधी हेतुर्व्यापारो व्यक्तिरेव सा। बोधव्यः प्रतिपाद्यः काकुध्वने विकारः प्रस्तावः प्रकरणम् अर्थस्य वाच्य लक्ष्य व्यंग्यात्मनः क्रमेणोदाहरति। संस्कृत व्याख्या अर्थाः प्रोक्ता इति वाच्यादयस्तदर्थाः स्युरित्यनेन प्रोक्ता इत्यर्थः। व्यंजकता व्यंजकानां तेषा व्यंजनोपायः व्यंजकता ससहायिका बोध्या इत्यर्थः। कीदृशीति व्यंजनोपायः कीदृशः वक्तृति कालादिपर्यन्तानां वैशिष्ट्यात् प्रतिभाजुषाम् अन्यार्थदा हेतुर्यो अर्थस्य व्यापारः वृत्तिः सा व्यक्तिरेव व्यञ्जनैवेत्यर्थः। प्रतिपाद्य उच्यमानार्थबोधे दृश्यः विकारः धैर्लक्षण्यम् यत्र शिरश्चलति सन्निधेरित्यत्र समाहारद्वन्द्वैकत्वेऽपि नपुंसकलिङ्गकार्याभावो विरामव्यञ्जनादाविति सार्ववर्मिकसूत्रे नपुंसकलिङ्गकार्याभावेन द्वन्द्वैकत्वे तत्कार्यस्य वैकल्पिकत्वज्ञापनात् अतः सन्निधिनः इति न रूपम् अयि इति। उदाहरण अयि पिहुलम् जलकुम्भम् घेत्तूण समागदमीमम् सही तुरीयम् समसे असलीलडी सासडी सहा विसमामि खडम् अत्र चौर्यरत गोपनम् गम्यते। संस्कृत अयि पृथूलम् जलकुम्भम् गृहीत्वा समागतास्मि सखि त्वरितम् श्रमस्वेद सलिल निःश्वासनि सहा विश्राम्यामि लक्षणम् इति संस्कृतम्। जलाहरणपथे उपनायकोपभुक्तायाः सख्याम् तच्चिह्रस्व संवरणोक्तिरियम् अयीति सम्बोधनम् अतिपृथूलमिति वा संस्कृतम्। श्रमातयौ स्वेद सलिल निःश्वासौ ताभ्याम् निःसहा दुर्बलाक्षणम् विश्राम्यामित्यर्थः। अत्र वक्त्रिया अनाकांक्षति तार्थवक्तृत्वम् वैलक्षण्यम् व्यञ्जनायाम् सहायम् बोद्धव्यवै लक्षण्ये उदाहरति ऊर्णिच्छम् इति। उदाहरण ऊर्णिदम् दौर्बल्यम् चिन्ता अलसत्तणम् सडिससीयम् मम मन्दभायिणीय केरम् सहितुह वि अह परिह वै। संस्कृत औन्निद्रयम् दौर्बल्यम् चिन्ता अलसत्वम् सन्निश्वसितम् मम मन्दभाग्यायाः कृते सखि त्वामपि अह परिभवति इति संस्कृतम्। अत्र दूत्यास्ततकामुकोपभोगो व्यञ्ज्यते तथा वृताम् दृष्टाम् नृपसदसि पाञ्चालतनयाम् वने व्याघ्रैः सार्ध सुचिरमूषितम् वल्कलधरैः विराटस्यावासे स्थितमनुचितारम्भनिभृतम् गुरुः खेदम् खिने मयि भजति नाद्यापि कुरुषु अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते। न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वम् शङ्क्यम् प्रश्नमात्रेणापि काकुर्विश्रान्तेः। संस्कृत उपनायकोपभुक्तत्वेन ज्ञातायाम् द्वितीयाम् नायिकायाः सोल्लुण्ठनोक्तिरियम् अह खेदे औन्निद्रयादिकम् कर्तृसखीत्वामपि परिभवतीत्यन्वयः त्वामपीत्यपिकारात् मम तेभिः परिभयो युक्त इत्यर्थः। अत्र बोधव्याया अपाकार्यकारित्वेन अन्यतो ज्ञाताया द्वितीया स्तथात्वं वैलक्षण्यम् काकु वैलक्षण्ये उदाहरति तथा भूतामिति कटु वक्तारम् भीमं प्रति आरखिद्यते कदाचिद् कुरुरिति सदेवस्योक्तौ पुनर्भीमस्योक्तिरियम् पांचालतनयां द्रौपदीं रिपाणां सदसि तथा भूतां दुःशासना क्लिष्टवचां क्लिष्टचां ऋतुमतिं दृष्ट्वा इत्यन्वयः एवं वने द्वैतवने व्याघ्रै सार्ध वल्कलधरैरस्माभिः सुचिरमूषितम् विराट स्यावासे अनुचितारम्भेण कङ्कसुदादिवेशेन निवृतं गुप्तं स्थितं च दृष्टा गुरु युधिष्ठिरः तन्निमित्तमेव इत्थं खिन्ने मयि भीमो ममापकारित्येवं खेदं भजति कुर्वो ममापकारिण इत्येवं खेदं कुरुषु त्वद्यापि न भजतीत्यर्थ उषितं स्थितं च भावक्तान्तम् दृष्टेत्यस्य कर्मपदम् अत्रेति शिरश्चलन सहोत्पन्नया काक्वासहकृतेन वाक्यार्थेन मयि न योग्य इत्यादिकं प्रकाश्यते इत्यर्थ शिरश्चलन सहकृतत्वमेव च काक्वा वैलक्षण्यम् ननु वाक्यात् सिद्ध एव वाक्यार्थो व्यञ्जक सिद्धिस्तु खेदभजनायोग्ये मयि खेदभजनस्यानौचित्यवशाद् बाधेन न भवति किन्तु खेदं भजतीत्युच्यनुचितमित्येवम् व्यङ्ग्यान्वये नैव भवति तथा च वाच्यसिद्ध्यङ्गाख्यगुणीभूतव्यङ्ग्यमेवेदं काव्यं न तु काकुसहकृतसिद्धवाक्यार्थ व्यङ्ग्योदाहरणमिदमित्याशङ्कते न चेति काकुः काकुव्यङ्ग्यमयि न योग्य इत्यादिकं समाधत्ते प्रश्नमात्रेणापिति काकोर्व्यङ्ग्येन प्रश्नमात्रेणापि विश्रान्तेः वाक्यार्थस्य सिद्धेरित्यर्थः तथा च कथं मयि खेदं भजतीति वाक्यार्थः काकुव्यङ्ग्येन प्रश्नमात्रेण सिद्ध ततश्च स्मृतया तथैव काक्वासहकृतः स वाक्यार्थो मयि न योग्य इत्यादिकम् व्यनक्तित्यर्थ एवञ्च प्रश्नांशे गुणीभूतव्यङ्ग्यमिदम् मयि न योग्य इत्याशङ्के तु स्वतः सम्भवी वस्तु व्यङ्ग्यवस्तुध्वनिरिति उभयसङ्कर ध्वनिरित्युक्तम् वाक्यवैलक्षण्ये उदाहरति त इ आ इति उदाहरण त इ आ मह गण्डस्थलडिमीयम् दिट्ठिण णेसि अणत्तो एणिहं सच्चेह अहं ते अ कवोलाण सा दिट्ठि अत्र मत सखीं कपोल प्रतिबिम्बिताम् पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायान्तु तस्यामन्यैव जातेत्यहो प्रच्छन्न कामुकत्वं ते इति व्यञ्ज्यते उद्देशोऽयं सरसकदली श्रेणीशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणी विभ्रमो नर्मदायाः किञ्चैतस्मिन् सुरतसुहृदतन्वी ते वान्ति वार्ता येषामग्रे सरति कलिता काण्डकोपो मनोभुः अत्र रतार्थ प्रविशेति व्यङ्ग्यम् डोल्लेयि अनन्नमणा अत्तामम् घरभरस्मि स अलस्मि खड्मेत्तम् जयि सञ्झायि होयि णव होयि विसामो अत्र सन्ध्या संकेतकाल इति तटस्थम् प्रति कयाचिद्योच्यते संस्कृत तदा मम गण्डलस्थनिमग्ना दृष्टिं न नयनस्यन्यत्र इदानीं सा चैवाहं तौ च कपोलौ न सा दृष्टिः इति संस्कृतम् नायिकायाः कपोलप्रतिबिम्बितामनूपनायिका नायिकामुखदर्शन व्याजेन साकंक्षदृष्टा तदपगमे तथा पश्यन्तं नायकं प्रति नायिकायाः सोल्लुण्ठनोक्तिरियं तदिति मत्कपोले मत्सखी प्रतिबिम्बकाले इत्यथ निमग्नां रागनिश्चलाम् इदानीं तदपगमं काले अत्रेति उपनायिका सत्त्वा सत्त्वबोधकत वेदानिं पदघटितत्वमत्र वाक्यस्य वैलक्षण्यं वाच्यवैलक्षण्ये उदाहरति उद्देशो अयमिति संकेतस्थलं नायिकां प्रदर्शयत् उक्तिरियं नर्मदाया अयमुद्देशः प्रदेशः सरसायाः कदलीश्रेण्याः शोभया अतिशयशीलः कुञ्जोत्कर्षादङ्कुरितो रमणीनां विभ्रमो विलासो यत्र तादृशाः तथा च तवापि रमण्या अत्र विभ्रम उत्पद्यतामिति भावः विशेषान्तरसमुच्चयार्थ माह किञ्चेति एतस्मिन् प्रदेशे सुरतसुहृदस्तेवातावान्ति एषामग्रे इत्यादि अकाण्ड आकस्मिकः अत्रेति वाच्यार्थो अत्र नर्मदायाः प्रदेश उक्तः तत् द्विशेषणवत्वेन तस्य प्रकर्षोऽत्र वैलक्षण्यम् अन्यसन्निधिवैलक्षण्ये उदाहरति नोल्लेयि इति नुदन्त्यनन्यमनाः स्वश्रुमां गृहभारे सकले क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः इति संस्कृतम् अत्ताश्वश्राम देशी अत्रेति उपनायकसन्निध्यभावे एतादृशोक्ते शमत्कारित्वाभावादुपनायकसन्निधिधावेव इयमुक्तिः उपनायकस्य वाच्यार्थबोद्ध्रीध्यस्तत्त्वस्थानस्य जनेभ्यो अन्यः तस्य च संकेतकाल बुभुत्सैव तत्सन्निधिवैलक्षण्यं तद्धशात् सन्धेत्यादिकं सामाजिकबोध्यं व्यङ्ग्यं तद्देवोपनायकेन तु वक्तृवैलक्षण्यादवगम्यते तटस्थं वाच्यार्थबोधे उदासीनं प्रकरणवैलक्षणे उदाहरति सुव इति उदाहरण सुव समागमिस्सदि तुज्य पियो अज्य पहर मेत्तेण एमेय कित्ति चिट्ठसि तासहि सज्जेसु करणिज्य अत्रोपपतिं प्रत्यभिसर्तु प्रस्तुता न युक्तमिति कयाचिद वार्यते अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः नाहं हि दूरं भ्रमितुं समर्था प्रसीदता अयं रचितो अञ्जलिर्वह अत्र विविक्तो अयं देश इति प्रच्छन्न कामुकस्त्वया भिसार्यता मिति आश्वस्तां प्रति कयाचिन्निवेद्यते संस्कृत श्रूयते समागमिष्यति तव प्रियो अद्य प्रहर मात्रेण एवमेव किमिति तिष्ठसि तत सखी सञ्जय करणीयम् इति संस्कृतम् समूपकान्तभिसारनिवर्तिकायाः सख्या उक्तिरियम् एवमेवेति तत्परिचर्योपक्रमरहितै वेत्यापाततः अभिसारोद्य तैवेति तु गूढम् करणीयम् रन्धनादि सामग्रीम् अत्रेति वार्यते इत्यत्र इति व्यञ्ज्यते इति शेषः प्रकरणप्राप्तभिसारनिवर्तनस्यैव सामाजिकबोध्यत्वात् गोपनीयकार्यविषयत्वमेव च प्रकरणस्य वैलक्षण्यम् देशवैलक्षण्ये उदाहरति अन्यत्रेति देशस्य विधेयक्रिया अधिकरणत्वेन निर्दिष्टम् स्थानम् व्यङ्ग्यार्थोपयुक्तीकरणमेव च तस्य वैलक्षण्यम् स्वसङ्केतस्थाने अन्यासाम् सखीनाम् पुष्पावचयम् वारयन्त्या उक्तिरियम् अत्रास्मिति अहमित्यर्थे अस्मित्यव्ययम् अहमत्र पुष्पावचयम् करोमित्यर्थः तमेवान्यत्र कुर्वित्यत्राह नाहमिति व इति बहुवचन मञ्जलिरित्येकवचनञ्च वहनीषु प्रत्येकं मञ्जलीकरणे सामर्थ्य सूचनाय अत्रेति अभिसार्यताम् आनीयताम् निवेद्यत इति तथा च तन्निवेदनमेव सामाजिक बोध्यम् व्यंग्यमित्यर्थ निर्जनीकरणमत्र देशस्य वैलक्षण्यम् तादृश देशस्यात्र वाच्यत्वे अपि सतम्या अधिकरणत्वेनैव निर्देशादेशत्वमेव पुरःस्फूर्तिकम् एव मन्यस्यादुत्याह सन्निध्यसत्त्वेति तत्सान्निध्यस्यापि देशवैलक्षण्यादेव लाभात् तदेव पुरःस्फूर्तिकम् द्वितीयास्तु निवेद्यार्थबोध प्रकरणसाचिव्यादेव कालवैलक्षण्ये उदाहरति गुरु अणेति उदाहरण गुरु अण पर्वत पिय किं भणामि तुह मंद भाईणी कखु अहम अज्य पवासम वच्चसि वच्चस अम जेव शूणसि करणिज्यम। गुरुजन परवस प्रिय किं भणामि तव मंद भागिनी कल्वहम अद्य प्रवासम व्रजसि व्रज स्वयमेव मन्यसे करणीयम् इति संस्कृतम्। अत्राद्य मधुसमये यदि व्रजसि तदाहम् तावद् न भवामि तव तु न जानामि गतिमिति व्यज्यते। आदिग्रहणा चेष्टादेः तत्र चेष्टाया यथा द्वारोपान्ततिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगम् परस्पर समासक्तम् समासादितम् आनितम् पुरतः शिरोसुक मधक्षिप्ते चले लोचने वाचस्तत्र निवारितम् प्रसरणम् संकोचिते दोर्लते। अर्थ चेष्टया प्रच्छन्न कांत विषय आकूत विशेषो ध्वन्यते निराकांक्ष प्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते वक्त्रादिनां मिथ संयोगे द्विकादिभेदे अनेन क्रमेण लक्ष्य व्यंग्य योश्य व्यंजकत्वमुदाहार्यम्। शब्द प्रमाण वेद्यो अर्थो व्यनक्त्यर्थान्तरम् यतः अर्थस्य व्यंजकत्वे तच शब्दस्य सहकारिता शब्देति न हि प्रमाणान्तर वेद्यो अर्थो व्यंजकः इति काव्य प्रकाशे अर्थ व्यंजकता निर्णयो नाम तृतीय उल्लासः। संस्कृत पित्राद्याज्ञया प्रवसितु म्यूदत्तम् नायकम् प्रतिनायिकाया उक्तिरियम् तव स्थाने किं भणामीत्यन्वयः अद्य वसन्ते स्वानभीष्टे उद्यमान् मन्दभागिनीति गुरुजनेत्यादिना अनिवर्तनीयत्व सूचनम् मन्यसे जानासि अत्रेति न भवामि मृतास्मि तव त्विति अद्य प्रवासोद्यमादेव न जानामि अन्यदा तु स्वमृत्यु हेतु क्रियाभ्यो निवर्तसे इति जानाध्येवेति भावः व्यञ्जते इति वसन्तकालस्य कामोद्दीपकत्वरूपाद्वये लक्षण्यादिति शेषः द्वारोपान्तेति उपनायिकाया भावं बुद्धा आग तस्य सख्युः सख्या उक्तिरियम् मयि द्वारोपान्ते निबीड सन्निहिते सति सौन्दर्य सारा श्रीर्यस्याः तादृश्या तया उरुयुगम् प्रोल्लास्य परस्पर समासक्तम् अन्यान्य समासंग समासादितम् प्रापितम् समासक्तिमिति भावेक्तः एवं पुरतः शिरो शुकानयनादिकमपि कृतमित्यर्थः अत्रेति आकूत भाव कुलस्त्रीभिस्ताव लज्जैव क्रियते कुलटाभिस्तु क्रियाविशेषेण लज्जाकरणम् ज्ञाप्यते तच्च भावसूचकम् तदीह सर्वैव क्रियालज्जाकरण ज्ञापिका उरुयुगसमासजनादीनामुल्लासपूर्वकत्वा द्वेर्लज्जाकरणज्ञापकत्वात् चेष्टा दे रीत्यादिपदात् चेष्टा विरहपरिग्रह यथा न ते मयि पदाक्षेपम दृष्टि निवारणम अकुर्वाणाम चटुक्तौ मे मौनमालम्बते स्म सा इति। अत्र पदाक्षेपा दिविरहो प्याकूत सूचक ननु वक्तृवैलक्षण्यो दाहरणमेव बोधव्य। वैलक्षण्योदाहरणमपि संभवति तत्किं बहुभिरुदाहरणैरित्यत्राह निराकांक्षेति। प्रत्येकमेषां प्राधान्येन व्यञ्जकतायां किं किमुदाहरणमित्याकाङ्क्षानिवर्तकप्रतिपत्तये इत्यर्थ। इत्थमेभिः सहायैर्वाच्यार्थव्यञ्जकत्वे उदाहृते लक्ष्यार्थव्यङ्ग्यार्थयोरपि व्यञ्जकत्वमनेन क्रमेण द्वित्र्यादिसंमीनादाहरणेषु बोध्यमित्याह वक्त्रादीनामिति। विकादिः वक्तृबोध्यव्यादि द्वित्र्यादिः भेदे संभेदे मीलने तथा हि साहेन्तित्यादौ मतप्रियमित्यादि लक्ष्यार्थस्य यत् कामुकविषये त्यादि व्यङ्ग्यमुक्तं तद्व्यञ्जने वक्तृबोधव्य वाक्यत्रयवैलक्षण्यं सहायम् उवन्निच्चलेत्यादौ यद्वयमङ्ग्यार्थस्य व्यञ्जकत्वमुक्तं तद्व्यञ्जने प्रकरण बोधव्य वैलक्षण्यं सहायम्। अत्र च वाच्यार्थस्य व्यञ्जकतायां द्विकादिभेदेन उदाहरणम् अत्ता एत्थ निमज्जयि इत्यादिकं क्वचित् पुस्तके लिखितं तिष्ठति तत्तु न युक्तमेव उक्तोदाहरणेष्वेव तत् सम्भवस्य निराकाङ्क्षेत्यादिना सूचित्वात् आर्थ्यां व्यञ्जनायां शब्दविशिष्टार्थस्य काव्यत्वमित्यभिप्रायेणाह शब्दप्रमाणेति न हि प्रमाणान्तरेणेति काव्ये इति शेषः। नाट्ये तु प्रत्यक्षदृष्टोऽप्यर्थो व्यञ्जक इति बोध्यम् इति श्रीमाहेश्वर न्यायालंकार भट्टाचार्य कृते काव्य प्रकाशादर्शे अर्थव्यञ्जकता निर्णयस्य तृतीयः प्रतिबिम्बः।